हरिम् मृजन्त्यरुषो न युज्यते सन्धेनुभिः कलशे सोमो अज्यते उद्वाचभिरजति हिन्वते मदे पुरुष्वतस्य कतिचित् परिप्रियाः साकम् वदन्ति बहवो मदेषिण इन्द्रस्य सोमम् जठरे यदा दुहः यदि मृजन्त्य सुगभस्तजो नरः समेलाभिर्दशभिः काम्यम् मधो अरममाणो अत्येतिका अभिसौर्यस्य प्रियन्दु हितस्थिरौरवम् अन्वस्मै जोषमभरद्विनम् ग्रसः सन्द्वजेभिः स्वसृभिः क्षेति जामिभिः रथोत अदृशत बर्हिष प्रियः पदर्गवाम् प्रतिप इन्दुरत्विजाः पुरन्धिवान्मनुषो यज्ञसाधनः शुचर्धिजापवते सोम इन्द्रते विबाहुभ्याम् चोदितो धारजा सुतो अनुष्वधम् भवते सोम इन्द्रते आप्राक्रतान् समजैरध्वरे मतेर्वेर्नदृशच्चम्बो ओरासदद्धरेः अंशम् दुहन्तस्तनयन्तमक्षितम् कविम् कवयोपसो मनीषिणाः समेकावो मतयो अजन्ति संयतरतस्य यो नासदने पुनर्भवाः नाभा पृथिव्या धरुण महादिवो अपामोर्मौ सिन्धुष्वन्तरुक्षितः इन्द्रस्य वज्र वृषभ विभवसः सोमा हृदय भवते चारुमत्सरः सतोपवस्व परिपार्थिवम् रजस्तोत्रे शिक्षन्नाधोन्पदेत सुक्रतो मानो निर्भाग्वसुनः सादनस्पृशो रजिम् विषङ्गम् बहुलम् वसीमहे आतो न इन्दो शतदात्मश्वयम् सहस्रदातुपशमद्धिरण्यवत उपमास्वबृहते देवतेरिषोधिस्तोत्रस्य पवमाननोगहे